अथ नवमोऽध्यायः श्रीभगवानुवाच इदं तु ते मुख्यतमम् प्रवक्ष्याम्यनसूयवे ज्ञानम् विज्ञानसहितम् यज्ञात्वा मोक्ष्यसे शुभात्। प्रत्यक्षावगमम् धन्यम् सुसुखम् कर्तुमव्ययम् अश्रद्धधानाः पुरुषाः धर्मस्यास्य परम् तपः अप्राप्य माम् निवर्तन्ते मृत्युसंसारवर्तनि। मस्तानि सर्वभूतानि न जातं तेष्वस्थितः न च मस्तानि भूतानि पश्यमे सर्वत्र गोमहान् तथा सर्वाणि भूतानि मत्स्थानि उपधारय।
विसृजामि
ಕಾಮಂ ಕೃಷ್ಣಂ ಅವಶಂ ಪ್ರಕೃತೇ ವಶಾತ್ ನ ಚ ಮಾತಾನಿ ಬದ್ಧಂತಿ ಧನಂಜಯ ಉದಾಸೀನವರಾಸೀನಂ ಅಸಕ್ತಂ ತೇಷು ಕರ್ಮಸು
ಯಜಂತೋ ಮಾಂ ಉಪಾಸತೆ ಯೇ गतिर्भर्ता प्रभु साक्षी निवास शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् तपाम्यहमहं वश्यं निगृह्णामि उत्सृजामि च अमृतं चैव मृत्युश्च सदसच्चाहम् अर्जुन अनन्याः चिन्तयन्तो माम् ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्ति अविधिपूर्वकम्। अपि चेत् सुदुराचारो भजते सम्यग्व्यवसितो हि सः क्षिप्रं भवति धर्मात्मा शश्वत्शान्तिम् निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति माम् हि पा व्यपाश्रित्य येऽपि स्युः पापयोनयः स्त्रियो वैश्याः तथा शूद्राः केऽपि यान्ति परां गतिम् किं पुनर्ब्राह्मणाः पुण्याः भक्ताः राजर्षयस्तथा अनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्या राजगुह्ययोगो नाम नवमोऽध्यायः।